एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। मन्त्रिपरिषदः उपवेशेन सहकारी क्षेत्रस्य समग्र सुधाराय कार्यदलम् संगठितम् वर्तते। सिम्मप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये गतदिने उपविष्टेन उपवेशेन सहकारी क्षेत्रस्य सुधाराय कार्यदलम् संगठितमिति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा अज्ञापयत। उपवेशेन वैदेशिक वृत्तिपार्जनाय गतानाम् जनानाम् कृते पूर्वम् प्राप्तम् सौविध्यम् विहाय अतिरिक्तम् एकम् चलभाषोपकरण मानितुम् अनुमतिम् दातुम् एमडीएमएस नामिकाम् चलभाषोपकरण प्रविधि व्यवस्थापन प्रणालीम् क्रियान्वेतुम् च निर्णीतमिति मन्त्री शर्मा अवोचत। उपवेशेन नेपाल कृषि वन सेवाया सचिवे रेवती रमणक पौडेलस्य पदोन्नतिम् कर्तुम् निर्णीतमिति मन्त्री शर्मा अवदत। असौ अभासत ढल्केवर बाणगंगा द्वात्रिंशद अधिकैक शत केवी परिमाणस्य विद्युत प्रसारण प्रणाल्याः निर्माणाय भूमिम् प्राप्तुम् प्राविधिकाधिकारिणम् निर्धारयितुम् च निर्णीतम् वर्तते। एस्मिट बोर्ड अफ गवर्नेन्स इत्यविधेयस्य निकायस्य उपवेशे सहभागितायै राष्ट्रिय योजनायोगस्य उपाध्यक्षाय मीनबहादुर श्रेष्ठाय स्वीकृतिम् दातुमपि उपवेशेन निर्णीतमिति च मन्त्री शर्मा अवदत। अर्थमन्त्री डाक्टर प्रकाश शरण महतो वदति सामाजिक सुरक्षा व्ययस्य निरसनात्मिका कापि योजना नास्ति। राष्ट्रिय सभायाः गतदिवसीयोपवेशे आगामिनः आर्थिक वर्षस्य विनियोजन विधेयकस्य सिद्धान्त प्राथमिकते आधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डाक्टर महत पूर्वम् व्यक्तायाम् प्रतिबद्धतायाम् सर्वकारः दृढोस्तीति भाषमाणः सामाजिक सुरक्षायाः वित्तस्य निरसनकारिणी कापि योजना नवर्त इति समस्पष्टयत। मन्त्री डाक्टर महत अवदत् सर्वकारस्य ध्यानम् मित व्ययिता स्थापनाय साधारण व्ययस्य न्यूनीकरणाय अनावश्यक संरचनानाम् निराकरणाय धनसञ्चयगत व्ययस्य वर्धनाय च केन्द्रितम् भवति। विमर्शनस्य क्रमे सांसदाः सबलायाः विस्तीर्णायाः समुन्नतायाश्च आर्थिकवृद्धेः आधारान् स्पष्टयितुम् सर्वकारस्य ध्यानम् आकर्षयन् एवमेव सांसदाः आगामिनि आयव्ययके नवप्रवर्तनस्य वृत्तिसर्जनस्य सेवाप्रवाहम् प्रभावकारिणीम् विधाय सुशासनस्य संस्थापनस्य नागरिकाणाम् आर्थिकरूपेण सबलीकरणस्य शिक्षायाः गुणस्तर सुधारस्य च विषयाः समावेशनीयाः इति धारणाम् उपस्थापयन् राष्ट्रिय सभायाम् प्रागायव्य व्ययक विषयकम् विमर्शनम् ह्य समाप्तम् वर्तते। तत्पूर्वम् शून्य समये सांसदाः सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन् सांसदैः कृत्रिम भूटान देशीय शरणार्थी प्रकरणस्य तथ्यम् वैरानेतव्यम् मार्गाणाम् सुधारः स्तरोन्नतिश्च विधातव्ये नेपाली क्रिकेट क्रीडायाः विकास विस्तारौ कर्तव्यौ भ्रष्टाचारस्य अनियमिततायाश्च सन्दर्भे तथ्यम् वही प्रकाशनीयम् वर्धमाना महर्गता नियन्त्रणीया जनजीवनम् सरलम् सहजम् च विधातव्यम् चेति उक्त्वा सर्वकारस्य ध्यानम् आकर्षितम् आसीत्। राष्ट्रिय सभायाः अपरोपवेशः आगामिनो ज्येष्ठ मासस्य तृतीय दिवसे बुधवासरे सायम् षड्वादने वस्ता। प्रतिनिधि सभाया ह्यस्तनोपवेशे आगामिनः आर्थिक वर्षस्य कृते विनियोजन विधेयकस्य सिद्धान्त प्राथमिकते आधृत्य विमृष्टमस्ति। उपवेशे अर्थमन्त्रिणः डाक्टर प्रकाश शरण महत इत्यनेन प्रस्तुतम् कर प्रस्तावम् विहाय आयव्ययकस्य सिद्धान्त प्राथमिकते आश्रित्य विहिते विमर्शने सांसदाः कृष्याः व्यवसायीकरणम् आपणीकरणञ्च ग्रामीण विकासाय ध्यानम् प्रदानम् निर्यातहाने न्यूनीकरणम् उपलब्ध प्राकृतिक स्रोत साधनानाम् उचितरीत्या उपयोगञ्च प्रति आगामी कार्यक्रमेषु विशेषेण ध्यानम् प्रदातव्यमिति बलम् प्रादु सांसदाः आगामी विकासाय नीतिगत संयुक्त दृष्टिम् आगामी दशकस्य विकासाय नीतिगत संयुक्त दृष्टि निर्माय अग्रे वर्धनीयमिति भाषमाणः सम्प्रति सृष्टः आर्थिक समावयः समेषां संयुक्त समावयोस्तीत्यतः अस्याः समस्यायाः समाधानाय सर्वैः प्रयतनीयमिति च बलं प्रादुः। तत्पूर्वं प्रतिनिधिसभाय ह्यस्तनोपवेशे सांसदाः नेपाली नागरिकाणां भूटान देशीय शरणार्थिनो विधाय अमेरिका देश प्रेषणस्य जगन्या परादे संलग्नाञ्जनान् दण्डनस्य परिदौ आनेतुं सर्वकारम् अयाचन्त। उपवेशस्य शून्य समये भाषमाणः प्रायः सांसदाः शान्ति सुरक्षायाः सम्पादकं गृह प्रशासनम् एव कृत्रिम भूटान देशीय शरणार्थिनः सम्पादनस्य प्रकरणे संलग्नम् दृष्टमित्युक्त्वा वञ्चनकार्ये संलग्नेभ्यः सर्वेभ्यो जनेभ्यः कठोरेण दण्डयितुम् अयाचन्त। नेपालिनः भूटान देशीय शरणार्थिनो विधाय प्रेषणस्य प्रकरणे उच्चस्तरस्य नेतृणामेव संलग्नता दृष्टा इत्यतः दोषिणः संरक्षणं प्रति कैरपि न प्रवर्तनीयमिति सांसदाः बलम् अदुः। संसदः मर्यादित सम्पादनस्य दायित्ववद्भिः सांसदैरेव एतस्य कार्यस्य उल्लंघनं विहितमिति चर्चयन्तः सांसदाः स्वस्य विषयोपस्थापनं ध्यानाकर्षणस्य विषयश्च मर्यादितौ विधातुम् अन्वरुन्धन्। सांसदाः योजनां विना आनीतानां विकासस्य योजनानां कार्यं प्रभावकारी न सम्भूतम् सेतूनां यथा समयं सम्भारस्य अभावेन यात्रिभिः समस्याः सुडभ्याः सन्ति लोकसेवायोगेन स्वस्य तथ्याङ्कान् सुरक्षितान् स्थापयितुं न शक्तम् नागरिकतायाः प्रदानस्य विषय विभिन्न ब्याजेन काष्ठमण्डपो उपत्यकायाः त्रोटितानां मार्गानां वर्षाकालात् प्रागेव सम्भार कार्यस्य सम्पादनस्य च सम्पादनं च प्रति सर्वकारस्य ध्यानम् आकर्षयन्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड भाषते भ्रष्टाचारस्य विरूद्धे नवीनं युद्धं प्रारब्धं वर्तते। काभ्रेपुलाञ्चोक जनपदस्य महाभारत ग्रामपालिकायां मार्ग ग्रामीण वैद्युतीकरण कार्यक्रमस्य कृते ह्य शिलां विन्यसन्। प्रधानमन्त्री प्रचण्ड भ्रष्टाचारस्य नियन्त्रणाय आत्मने दलाय च साहाय्यम् आवश्यकमस्तीति अब्रवीत्। प्रधानमन्त्री प्रचण्ड विकासेन समृद्ध्या च विना अन्याय समाप्तुं समाजवादस्य नवीनयुगं प्रारब्धुं च न शक्येते इति अतर्कयत। असौ सर्वेषां सहकार्येण सहयोगेन च सहितायां प्रतिबद्धतायां सत्याम् आगामिषु पञ्चसु वर्षेषु एकं प्राविलेखनं निर्मातुं शक्यते इति विश्वासम् अभिव्यनक। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति देशस्य शैक्षिक क्षेत्रस्य सुधाराय सर्वकारेण सर्वे उपायाः अवलम्ब्यन्ते। नेपाल शिक्षक महासंघस्य राष्ट्रिय समित्या बालुवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य अर्पितं ज्ञापनपत्रं गृह्णन् असौ अगदत् विगत कालादेव अवशिष्टेषु कतिचित् विषयेषु सर्वकारेण स्पष्ट दृष्टिकोणेन निर्णयो विधास्यते। प्रधानमन्त्रिणा प्रचण्डेन शिक्षकाणां समस्या आत्मनः ज्ञाताः सन्ति हेतोः एतासां सम्बोधनाय उदीरितमिति एकीकृताखिल नेपाल शिक्षक संगठनस्य अध्यक्ष शंकर अधिकारी असूचयत। नेकपा एमाले दलस्य सचिवालय उपवेशेन केन्द्रीय समितेः उपवेशाय दशसूत्रीया कार्यसूची निर्धारिता अस्ति। ललितपुरस्य च्यासल स्थिते केन्द्रीय कार्यालय पूर्वीय दिहु उपविष्टेन सचिवालय उपवेशेन सो वैशाखस्य अष्टाविंशात् दिवसात् प्रारम्भणाय प्रारम्भमाणाय केन्द्रीय समिति उपवेशाय कार्यसूची निर्धारिता स्थिति दलस्य प्रवक्ता पृथ्वी सुब्बा गुरूङ ज्ञापितवान्। प्रवक्ता गुरूङ अनुशासन लेखा निर्वाचन केन्द्रीय परामर्शदातृ परिषदाम प्रमुखाणाम प्रतिवेदनानाम प्रस्तुतेः कार्यसूची निर्धारितेति अबोधयत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति राजनीतिक स्वतन्त्रता संचार स्वतन्त्रता च परस्परं सम्पृक्त विषयौ स्तः। त्रिंशस्य विश्व संचार स्वतन्त्रता दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री शर्मा राजनीतिक स्वतन्त्रतां विना संचार स्वतन्त्रतायाः सम्भावना न भवतीति उदयरयत। नेपाल सर्वकारस्य प्रवक्ता च मन्त्री शर्मा लोकतान्त्रिक गणतन्त्र संचार स्वतन्त्रता सुनिश्चिता स्थिति अगदत। नेकपा एमाले दलस्य सचिवस्य टोप बहादुर राय माझी इत्यस्य गृहे प्रहरिणा अनुसन्धानं विहितमस्ति। ह्य ललितपुरस्य कुमलटारवर्तिनी रायमाझी इत्यस्य गृहे नेपाल प्रहरिण विशेष समूहेन अनुसन्धानं विहितमस्ति इति समाचाराः।